एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। प्रतिनिधि सभायाः स्थानोपवेशे सांसदैः बारा जनपदस्य बालिकायाः बलात्कारस्य पश्चात् विहितायाः हत्यायाः प्रकरणे दोषिणो जनान् शीघ्रातिशीघ्रं दण्डयितुं परिवारजनेभ्य न्यायं प्रदातुं च अभियाचितं वर्तते। उपवेशस्य विशेष समये सांसदाः एवं प्रकृतिकानां घटनानां कारणं गभीरेण अधीत्य प्रतिवेदनं निर्माय क्रियान्वयितुं च सर्वकारम् अनुरुद्धवन्तः। उपवेशे सांसदाः उपभोक्तृभिः पाचन इन्धनस्य अभावस्य कृषकैः समये एव मलस्य अप्राप्तेश्च विषयान् प्रति सर्वकारस्य ध्यानाकर्षणं विधाय तत्र सर्वकारः गभीरो नास्ति इति आरोपयन् सांसदः कृषिक्षेत्रे सर्वकारस्य सिद्धान्तः प्राथमिकता च एकत्र वित्तस्य विनियोजनम् अन्यत्र च दृश्यते इत्यतः सर्वकारेण समये एव सावधानो भूत्वा विषयेऽस्मिन् पुनर्विचारो विधातव्यः इति धारणाम् उपस्थापयन्। प्रतिनिधिसभायाः स्थानोपवेशे उद्योग वाणिज्यापूर्ति मन्त्री गौरी कुमारी संगीत खेलकूद चलचित्र क्षेत्राणां सेवामूलकोद्योगानां रूपेण पञ्जीकरणं कृत्वा वित्तं विनियुक्तमस्ति इति उक्त्वा सांसदानां प्रश्नानाम् उत्तरं प्रादात्। प्रतिनिधिसभायाः स्थानोपवेशे चत्वारि विधेयकानि प्रकरणगत विमर्शनाय सम्बद्ध समितिषु प्रेषणीयानि इति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः अर्थमन्त्रिणा सोणिम वाग्लेभिदेन प्रस्तुतं सांविधानिक निकायानां पदाधिकारिणां पारिश्रमिक सेवा शपथ सौविध्य सम्बद्धम् एतत् विक्रमवर्षीयं प्रथम संशोधन विधेयकम्। परराष्ट्र मन्त्रिणा शिशिर खनालेन प्रस्तुतं पारपत्र सम्बद्धम् एतत् विक्रमवर्षीयं संशोधन विधेयकम्। महिला बाल बालिका लैंगिक यौनिकाल्पसंख्यक सामाजिक सुरक्षा मन्त्रिणा सीतावादी इत्यनया प्रस्तुतं मानव क्रय विक्रयण नयनानयन नियन्त्रण सम्बद्धम् एतत् विक्रमवर्षीयं प्रथम संशोधन विधेयकम्। उद्योग वाणिज्यापूर्ति मन्त्रिणा गौरी कुमारी इत्यनया प्रस्तुतं खनि खनिज पदार्थ सम्बद्धम् एतत् विक्रमवर्षीयं विधेयकञ्च सर्वसम्मत्या स्वीकृत्य विमर्शनाय सम्बद्ध समितिषु प्रेषितानि वर्तन्ते। प्रतिनिधिसभायाः अपरोपवेशः अद्य मंगलवासरे दिवा एकवादने वसति। जेन्जी युवान्दोलनस्य हुतात्म परिवाराणाम् आहतानां च जनानां याचनानां सम्बोधनं सर्वकारेण विशेष कार्यदलं संघटय्य कर्तुं निर्णीतं वर्तते। गृहमन्त्रिणः सुदन गुरुङ इत्यस्य अध्यक्षतायां पूर्वे द्युः तदीय कार्यकक्षे विहिते विमर्शने विधि न्याय संसदीय विषय मन्त्रिणः सोविता गौतम इत्यस्याः प्रतिनिधिसभा सदस्यानां मुख्य सचिवस्य गृहसचिवस्य जेन्जी युवान्दोलनस्य हुतात्म परिवाराणाम् आहतानां च जनानां प्रतिनिधीनां च सहभागिता आसीत्। कोशी प्रदेशस्य मुख्यमन्त्रिणा हिक्मत कुमार कार्किणा ह्य कोशी प्रदेशसभायां विश्वासस्य मतं प्राप्तमस्ति। ह्य उपविष्टे प्रदेशसभायाः उपवेशे मुख्यमन्त्रिणा कार्किणा नेपालस्य संविधानस्य अष्टाशीत्युत्तरैकशततम धारायाः द्वितीयोपधारायाः अनुसारेण प्रदेशसभायां विश्वासस्य मतं प्राप्तमस्ति। उपवेशे त्र्यशीति प्रदेशसभा सदस्याः उपस्थिता आसन्। तत्र कार्किणः पक्षे सप्तपञ्चाशत् मतानि, विपक्षे द्वा विंशतिर्मतानि व्यक्तानि आसन्। प्रदेशसभायाम् अन्य चत्वारः सदस्याः तटस्था आसन्। बागमती प्रदेशस्य मुख्यमन्त्रिणः किरण थापा मगर इत्यस्य नियुक्ति सम्बद्धे विवादे पाचन उच्च न्यायालयस्य हेटौडा स्थानीयेन न्यायपीठेन कारण प्रदर्शनादेशः प्रदत्तोऽस्ति। न्यायाधीशस्य बबिता उप्रेति इत्यस्याः न्यायपीठेन ह्य प्रारम्भिकं श्रवणं विधाय मुख्यमन्त्रिणः नियुक्तेर्विषयमधिकृत्य नियुक्तेः प्रमाणानि कारणञ्च समाविश्य पञ्चदश दिवसानाम् अभ्यन्तरे लिखितम् उत्तरं प्रदातुम् आदिष्टमस्ति। याचिका निवेदनेऽस्मिन् श्रवणं विधाय न्यायालयेन अन्तरिमादेशस्य विषये श्व भाद्रमासस्य दशमे दिवसे उभावपि पक्षौ विमर्शनाय आहूतौ स्तः। अत्रान्तरे बागमती प्रदेशसभायाः उपवेशः अद्य चतुर्वादने आहूतो वर्तते। अद्याहुते उपवेशे प्रदेशस्य मुख्यमन्त्रिणा किरण थापा मगर इत्यनेन विश्वासस्य मतं ग्रहीष्यते। ह्य सायम् अष्टवादनाय आहूतः उपवेशः अद्यतन दिवसाय निर्धारितोऽस्तीति प्रदेशसभायाः सचिवः रामकुमार पौडेलः अज्ञापयत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति अस्माकं समाजे प्रविधे अपेक्षया नैतिकतायाः आचरणस्य निष्ठायाश्च आधिक्येन आवश्यकता वर्तते। नेपाल जनप्रशासन संघेन ह्य आयोजिते हिमबहादुर मल्ल सम्मान वितरण कार्यक्रमे राष्ट्रपतिः पौडेलः प्रविधि सामर्थ्योः विषया अन्येभ्य अपि ज्ञातुं शक्यन्ते, परम् आचरणं नैतिकता निष्ठा च एव आत्मनि अन्तस्करणे एव उद्भवन्तीति प्रावोचत्। राष्ट्रपतिः पौडेलः देशस्य परिवर्तिते परिवेशे जनतायाः विकासाभिलाषा सुशासनस्य माध्यमेन प्रपूरणीया इति अगदत्। राष्ट्रपतिः पौडेलः हेमबहादुर मल्ल सम्मानिताय डा रामकृष्ण माकजू श्रेष्ठाय रामेश्वर प्रसाद खनालाय च वर्धापनानि प्रदाय एतौ सार्वजनिक सेवां प्रति समर्पणेन राष्ट्रनिर्माणं प्रति विहितेन योगदानेन च सम्मानितौ स्तः इति समस्पष्टयत्। धार्मिक दृष्ट्या पर्यटकीय दृष्ट्या च महत्वपूर्णे बाजुरा जनपदस्य बडीमालिका क्षेत्रे दूरभाष सेवा इन्टरनेट इति अन्तर्जाल सेवा च प्राप्ते स्तः। नेपाल टेलिकम इति दूरभाष सम्बद्ध संस्थया बडीमालिका क्षेत्रे 4G इति वैद्युत सञ्जाल सेवाया विस्तारेण सहैव ह्यस्तन दिवसात् तत्र चल दूरभाष सेवा अन्तर्जाल सेवा सञ्चालिते स्तः। ऋषि तर्पणी पर्वणः अवसरे आयोक्ष्यमाणायाः मेलायाः पूर्व सन्ध्यायां सेवेयं संचालिता अस्ति। समुद्रस्तराद् आसन्न 200-1400 मीटर मितोच्चे स्थाने विद्यमाने बडीमालिका क्षेत्रे संचार सेवायाः प्राप्तेः पश्चात् स्थानीयानां पर्यटकानां सर्वकारीयाणां सर्वकारीयेतराणां च निकायानां कृते संचार सेवा सहजा भविष्यति इति अपेक्षितमस्ति। सूचना संचार मन्त्री डा विक्रम तिमिलसेना सेवा संचालनस्य वैद्युत माध्यमेन उद्घाटनं विधाय दुर्गम क्षेत्रे विद्यमानान् जनान् संचारस्य आधारभूत सेवा न वञ्चयितुं सर्वकारः प्रतिबद्धोऽस्तीति प्रावोचत्। स्याङ्जा जनपदस्य गल्याङ नगरपालिकायाः तृतीय ओडा क्षेत्रस्य गल्याङ बजार स्थानात् साङ्गिल्या स्थानं प्रति प्रस्थीयमानं जीपयानं ह्य सायं करादि स्थाने दुर्घटितं सत् द्वौ जनौ मृतौ स्तः। दुर्घटनायां गल्याङ नगरपालिकायाः नवम ओडा क्षेत्रस्य याम बहादुर बिक अष्टम ओडा क्षेत्रस्य सदीक्षा थापा च मृतेति प्रहरिणा ज्ञापितं वर्तते। दुर्घटनायां 18 जनाः आहताः वर्तन्ते। आहतेषु द्वयोर्जनयोः अवस्था गभीरा वर्तते इति प्रहरिणा ज्ञापितमस्ति। उदयपुर जनपदस्य बेलका नगरपालिकायाः पञ्चम ओडा क्षेत्रस्य मदन भण्डारी राजमार्गे बसयानेन अटोयानं प्रहृतं सद् द्वौ जनौ मृतौ स्तः। दुर्घटनायां अटोयाने आरूढे द्वे महिले मृतेति ज्ञापितं वर्तते। मृतकौ बेलका नगरपालिकायाः पञ्चम ओडा क्षेत्रस्य 34 वर्षीया मन्दिरा मगरः वर्तते। अपरस्याः मृतकः बेलका नगरपालिकायाः पञ्चम ओडा क्षेत्रस्य 34 वर्षीया मन्दिरा मगर वर्तते। अपरस्या महिलायाः सत्यापनं सम्भूतं नास्तीति प्रहरिणा ज्ञापितमस्ति। अटोयाने आरूढानां 3 आहतानां जनानां धरानवर्तिने बीपी कोइराला स्वास्थ्य विज्ञान प्रतिष्ठाने उपचारः जायमानोऽस्तीति प्रहरिणा ज्ञापितमस्ति। प्रतिनिधि सभायाः कृषि प्राकृतिक स्रोत समितेः उपवेशे मानव वन्य जन्तूनां द्वन्द व्यवस्थापनस्य विषये विमृष्टमस्ति इति समाचारः।